भवानेव आरम्भे वदति वा महोदय.
आं महोदय. ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै. ॐ शान्ति शान्ति शान्तिः. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः.
सर्वेभ्यो नमः. सर्वेषां स्वागतम् अस्मिन् वर्गे. अस्माकं प्रवर्तमानः विषयः अस्ति तत्र कर्मणि प्रयोगः भावे प्रयोगः च. इदानीम् अस्मिन् विषये तत्र गतवर्गे वयं तत्र किं पुटसङ्ख्या 131 मध्ये स्मः इति मन्ये. हा, तद् प्रायशः कृतवन्तः, किन्तु पुनरेकवारं कृत्वा अग्रे सरामः. अस्तु, तर्हि तत्र रघुवीरानन्दस्वामी भवतः पार्श्वे तत्र पुटसङ्ख्या 131.
आं महोदय.
हा, अस्तु, भवानेव आरम्भं करोति वा रघुवीरानन्दस्वामी?
उपरिस्थल अंशान्
ततः सत्यं महोदय. उपरितनान् वाक्यान् उपरितनान् अंशान्
मनसि निधाय अधः लिखितायाः कथायाः कथायाः कर्मणि भावे वा प्रयोगपरिवर्तनं कुरुत. एकः सन्यासी अस्ति.
तत्र भावे वा कर्मणि वा?
तत्र कर्म नास्ति, कर्मपदम्.
कर्मपदं नास्ति, अकर्मकधातुः अस्ति.
अस्ति इति अकर्मकपदं धातु अस्ति.
अतः भावे प्रयोग. अतः
एकः न एकेन संन्यासिना अस्ति.
हा, अस्ति तत्र कर्मणि प्रयोगे भूयते. न भूयते
भूयते
भूयते. हा, अस् धातोः तत्र किञ्चित् परिवर्तनं भू आगच्छति तत्र. हा, तावदेव. अतः तत्र एकेन सन्न्यासिना भूयते. समीचीनं महोदय. अस्तु, नरेश् महोदय इदानीं. हा, भूयते.
सः भिक्षाटनं कृत्वा जीवति. अत्र सः तेन भिक्षाटनं कृत्वा जीव्यते.
जीव्यते, समीचीनं. हा, तत्र भिक्षाटनं कृत्वा, तत्र भिक्षाटनम् इति कर्मपदमस्ति, किन्तु जीवति इति क्रियापदस्य कर्मपदं नास्ति. कृत्वा इति, हा, कृत्वा इति क्रियापदस्य. अतः तत्र जीव्यते, सः जीवति, तेन जीव्यते, तेन भिक्षाटनं कृत्वा जीव्यते. समीचीनं. हा, रघुवीरेन्द्रस्वामी अग्रे.
प्रतिदिनं प्रभाते एव सः प्रतिष्ठते. तिष्ठते.
तत्र प्रतिष्ठते, स्थीयते इति दृष्टवन्तः खलु. तत्र तिष्ठति, स्थीयते. प्रस्थीयते, प्रस्थीयते इति मन्ये, अथवा प्रथीयते वा तत्र?
प्रतिदिनं प्रभाते एव तेन प्रस्थीयते.
हा, प्रस्थीयते इति चिन्तयामि महोदय. हा,
प्रतिदिनं प्रभाते एव
तेन
तेन प्रस्थीयते.
हा, समीचीनम्. अस्तु, नरेश् महोदय अग्रे.
सः सर्वदा सन्तुष्टः भवति. भवती अपि अकर्मक अस्ति तेन सर्वदा सन्तुष्टः भूयते
तेन सर्वदा
सन्तुष्टः भूयते
न न तेन इति सन्तुष्टः इति किम् अस्ति तत्र भवति इति क्रियापदं सः इति कर्तृपदं सन्तुष्टः इति किम् अस्ति
सन्तुष्टः तु विशेषणमस्ति
अतः
तेन सन्तुष्टेन भूयते
हा तेन सर्वदा
सर्वदा सन्तुष्टेन भूयते
हा इति समीचीनं महोदय हा इदानीं समीचीनम् अस्तु रघुवीरेन्द्रस्वामी अग्रे
कदाचित् सः भिक्षाटने किमपि न प्राप्नोति कदाचित् तेन भिक्षाटने किमपि न प्राप्यते
प्राप्यते किमपि न प्राप्यते तत्र किम् अपि इति तत्र किं नपुंसकलिङ्गे अस्ति अतः तत्र परिवर्तनं न भवति कर्मपदम् अस्ति किन्तु तत्र किम् इति एव तिष्ठति अस्तु समीचीनम् अस्तु नरेश् महोदय अग्रे
तथापि न शोचति न किमपि काङ्क्षति तथापि न शोचति शुच्यते
हा हा शुच्यते हा
न किमपि काङ्क्षते
काङ्क्ष्यते काङ्क्ष्यते हा ईक्ष्यते काङ्क्ष्यते
तथापि न शुच्यते न किमपि काङ्क्ष्यते
काङ्क्ष्यते समीचीनं हा अस्तु रघुवीरेन्द्रस्वामी अग्रे
एवं सः सर्वदा एकभावेन तिष्ठति एवं तेन सर्वदा एकभावेन स्थीयते
स्थीयते इति प्रायशः अस्ति महोदय स्थीयते स्थीयते वा अस्तु 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 हा एवं तेन सर्वदा एकभावेन स्थीयते अस्तु अस्तु स्थीयते समीचीनं महोदय अस्तु नरेश् महोदय
निन्दायां प्रशंसायां वा सः समानः एव भवति निन्दायां प्रशंसायां वा तेन समानेन एव भूयते
भूयते उत्तमम्
समानेन
समानेन सः समानः इति तत्र विशेषणविशेष्यभावः अतः तेन समानेन एव भूयते समीचीनम् अस्तु रघुवीरेन्द्रस्वामी अग्रे
सुखं दुःखं च तं न प्रभावयति सुखं दुःखं च सुखेन दुःखेन च किन्तु
अत्र अत्र कर्मणि वा भावे वा इति अत्र
कर्मणि अस्ति
कर्मणि अस्ति इदानीं कर्मपदं किम् अस्ति अत्र
तं
तम् अतः कर्मणि प्रयोगे नियमः कर्मपदस्य प्रथमविभक्तिरूपं प्रथमविभक्त्यन्तम् अतः
सुखेन दुःखेन च सः न प्रभाव्यते
हा तत्र प्रभाव्यते समीचीनं महोदय प्रभाव्यते उत्तमं हा अस्तु नरेश् महोदय अग्रे
सः भगवतः आराधनां करोति तेन भगवतः आराधनां क्रियते
हा किन्तु आराधनाम् इति
आराधनाम् आराधना प्रथमाभक्ति आराधना
हा आराधना स्त्रीलिङ्गे अतः तेन
तेन भगवतः आराधना क्रियते
क्रियते उत्तमम् अस्तु रघुवीरेन्द्रस्वामी अग्रे
भगवतः अतीव प्रियः प्रियः अस्ति अस्ति अकर्मकमस्ति भावप्रयोगं करणीयं तेन भगवतः अतीव प्रियः एव वा
न तत्र प्रियः इति पदस्य कार्यं किम् अस्ति तत्र सम्बन्धः अस्ति वा तत्र तस्य पदस्य अन्यपदेन अन्येन पदेन सम्बन्धः अस्ति वा प्रियः इति कः प्रियः
भगवतः अतीव प्रियः
न न किन्तु कः प्रियः अस्ति
सः प्रियः
सः प्रियः नाम प्रियः नाम विशेषणं
तेन प्रियेण भूयते
अथवा तत्र तेन लघुवाक्यं तु सत्यं महोदय तेन प्रियेण भूयते इदानीं प्रियेण मध्ये तत्र भगवतः
अतीव प्रियेण
भूयते भूयते तत्र अतीव इति अव्ययम् अथ तत्र परिवर्तनं न भवति अस्तु अग्रे नरेश महोदय
सः ध्यायति चेत् भगवन्तमेव सः ध्यायति चेत् भगवन्तमेव तेन ध्यायति क्रियापदं ध्यायते चेत् भगवन्त भगवान् एव तेन ध्यायते चेत् भगवान् एव
भगवान् एव तत्र भगवन्तं कर्मपदम् अतः
प्रथमविभक्ति भगवान्
भगवान् समीचीनम् अस्तु रघुवीरेन्द्रस्वामी अग्रे
इदानीं सरलमेव
सत्यं
सः पश्यति चेत् भगवन्तमेव तेन दृश्यते चेत् भगवान् एव
भगवान् एव समीचीनं नरेश महोदय अग्रे
सः भावयति चेत् भगवन्तमेव भावयति भाव्यते तेन भाव्यते चेत् भगवान् एव
भगवान् एव समीचीनम् अस्तु अन्तिमं रघुनन्दस्वामी
एवं सर्वदा सर्वत्र सर्वथा भगवन्मयः वर्तते सः वर्तते अकर्मकमस्ति महोदय भावे प्रयोगम् अस्ति एवं तेन सर्वदा सर्वत्र सर्वथा भगवन्मयः भूयते
वर्तते इति अस्ति तत्र वर्तते इति तस्य दत्तं वा पूर्वं वर्तते अर्थः तु तत्र सत्यमेव भूयते इति एव किन्तु वर्तते इति किम् अस्ति इति वृत् धातुः सत्यं महोदय वृत्यते वा अस्तु महोदय वर्तते वृत् धातुः वृत्यते वृत्यते सत्यं महोदय अस्तु अतः वाक्यं पूर्णवाक्यं किम् अस्ति महोदय
एवं सर्वदा सर्वत्र सर्वथा भगवन्मयः वृत्यते
न न तत्र कः भगवन्मयः
सः भगवन्मयः
अतः तेन इति भवति चेत्
भगवन्मयेन वा
समीचीनं
भगवन्मयेन
भगवन्मयेन भगवन्मयेन सत्यं वृत्यते वृत्यते एवं तेन सर्वदा सर्वत्र सर्वथा भगवन्मयेन वृत्यते उत्तमं अस्तु इदानीं तत्र अग्रे नियमः अस्ति तत्र नरेश महोदय पठति वा अग्रे
प्रयोगवर्तन परिवर्तनसन्दर्भे कर्तृपदस्य कर्मपदस्य वा विशेषणानि सन्ति चेत् तेषां रूपाणामपि विभक्तिपरिवर्तनं भवति यथा कुशलः लेखकः उत्तमां कथां लिखति एतस्य वाक्यस्य कर्मणि प्रयोगः एवं भवति कुशलेन लेखकेन उत्तमा कथा लिख्यते अत्र विशेषणामपि परिवर्तनं विशेष्यानुगुणं भवति कुशलः लेखकः कुशलेन लेखनेन लेखकेन उत्तमां कथा कथाम् उत्तमा कथा
हा नाम तत्र कथामिति पदस्य परिवर्तनं यथा भवति कथा इति प्रथमविभक्तो विभक्त्यन्तं भवति तथैव कथामिति पदस्य विशेषणम् उत्तमाम् अस्ति
उत्तम
पुनः लेखकः इति विशेषम् अस्ति तस्य तृतीया विभक्त्यन्तं भवति लेखकेन लेखकपदस्य विशेषणम् अस्ति कुशलः तस्यापि
कुशलेन
कुशलेन इति रूपं भवति अस्तु समीचीनं हा अस्तु अतः नियमः जानीमः अस्तु समीचीनम् अस्तु रघुवीरेन्द्रस्वामी अग्रे
एतेषां वाक्यानां प्रयोगविस्तरणं परिवर्तनं यतो उदाहरणं कुरुत कृष्णः आदित्यानां विष्णुः अस्ति कृष्णेन आदित्यानां विष्णुना भूयते तत्र केवलम् एकमेव पदं क्रियापदम् अस्ति विभूतियोगः प्रायः महोदय कृष्णः ज्योतिषां रविः अस्ति ज्योतिषां रविरंशुमान् अस्ति कृष्णेन ज्योतिषां रविः रविना वा रविना
रविणाणत्वं भवति महोदय तत्र तत्र रविणा रविणा भूयते
भूयते
भूयते अस्तु नरेश महोदय
द्वितीय कृष्णः वेदानां सामवेदः अस्ति कृष्णेन वेदानां सामवेदेन भूयते
हा सामवेदेन भूयते समीचीनम् अस्तु रघुवीरेन्द्रस्वामी अग्रे
कृष्णः नक्षत्राणां रश्मी अस्ति कृष्णेन नक्षत्राणां कृष्णः एव खलु शशि अस्ति कृष्णः
न न कृष्णेन कृष्णेन
कृष्णेन नक्षत्राणां शशिना अस्ति आम्
भूयते
भूयते पुल्लिङ्गः एव खलु
शशी इति प्रायशः महोदय
अहं चिन्तयामि शश्या
न न शशिन् पदं भवेत्
शशिन् प्रायशः अस्ति पदं शशिन् इति
अधिकारिन् इति
हा तादृशं सर्वं सत्यं महोदय हा शशिन् इत्येव हा शशिन् इत्येव भवेत् शशि इति एव तत्र शशिन् इति प्रायशः हा समीचीनं महोदय अस्तु भूयते हा अस्तु हरीश् महोदय
कृष्णः इन्द्रियाणां मनः अस्ति कृष्णेन इन्द्रियाणां मनसा भूयते
हा मनस् इति सकारान्तपदं समीचीनं मनसा समीचीनं हा अस्तु रघुवेन्द्रस्वामी
कृष्णः भूतानां चेतना अस्ति कृष्णेन भूतानां चेतनया भूयते।
हा तत्र प्रायशः साक्षात् विशेषणम् इति तत्र नियमानुसारं नास्ति, किन्तु चेतनया इति तृतीयविभक्त्यन्तं समीचीनमेव महोदय। अस्तु नरेश महोदय अग्रे।
कृष्णः सरसां सागरः अस्ति। कृष्णेन सरसां सागरेण भूयते।
हा सागरेण णत्वम् अस्ति। हा सागरेण भूयते भूयते समीचीनम्। हा रघुनन्दस्वामी अग्रे। सर्ववृक्षाणां
कृष्णः सर्ववृक्षाणाम् अश्वत्थः अस्ति। कृष्णेन सर्ववृक्षाणाम् अश्वत्थेन भूयते
भूयते। हा अकार साधारण अकारान्तपदम्। हा नरेश महोदय।
कृष्णः पक्षिणां वैनतेयः अस्ति। कृष्णेन पक्षिणां वैनतेयेन तेन भूयते
भूयते इति तावदेव समीचीनम्। अस्तु रघुनन्दस्वामी।
कृष्णः आयुधानां वज्रम् अस्ति। कृष्णेन आयुधानां वज्रेण भूयते।
हा वज्रेण णत्वं प्रायश अस्ति महोदय तत्र वज्रेण भूयते। हा समीचीनं।
कृष्णः श्रोतसां
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 श्रोतसां जाह्नवी अस्ति। कृष्णेन श्रोतसां
जाह्नवी तु नदी। हा ततः तत्र
जाह्नव्या भूयते।
हा जाह्नव्या भूयते समीचीनम्। हा रघुनन्दस्वामी।
अक्षराणाम् अकारः अस्ति कृष्णः। अक्षराणां कृष्णेन अकारेण भूयते।
हा कृष्णेन अक्षराणाम् अकारेण भूयते समीचीनम्। हा नरेश महोदय।
कृष्णः छन्दसां गायत्री अस्ति। कृष्णेन छन्दसां गायत्र्या भूयते
भूयते। रघुनन्दस्वामी।
कृष्णः ज्ञानवतां ज्ञानम् अस्ति। कृष्णेन ज्ञानवतां ज्ञानेन भूयते।
हा ज्ञानेन भूयते। तत्र ज्ञानवताम् इति पदं तत्र षष्टिबहुवचनं प्रथमाविभक्ति एकवचनं रूपम् एकवचनं किम् अस्ति?
ज्ञानवत्
ज्ञानवत् इति प्रतिपदं ज्ञानवान् ज्ञानवताम् इति समीचीनं। हा नरेश महोदय।
कृष्णः सत्त्ववतां सत्त्वम् अस्ति। कृष्णेन सत्त्ववतां सत्त्वेन भूयते।
हा सत्त्वेन भूयते। तत्र सत्त्ववताम् इति पदस्य प्रथमविभक्ति एकवचनरूपं किम्?
सत्त्ववान्
हा तत्र सत्त्ववान् यस्य अथवा यस्मिन् सत्त्वम् अस्ति सः सत्त्ववान्। सत्त्ववान् अस्तु समीचीनम्। अस्तु इदानीम् अग्रे सरामः। अग्रे रघुनन्दस्वामी अग्रिमम् अभ्यासः।
आं महोदय. चतुर्थः बिन्दुः कर्मणि प्रयोगेन भावप्रयोगेन च लिखितम् एतां कथां पठित्वा कर्तरिप्रयोगेन परिवर्तयत. एकेन मोहाविष्टेन भूयते. एकः मोहाविष्टः अस्ति.
एकः मोहाविष्टः अस्ति. समीचीनम्. अस्तु नरेश महोदय.
तेन समचित्तेन न भूयते. सः समचित्तः न अस्ति.
समीचीनम्.
तेन कर्मफलं प्राधान्येन चिन्त्यते. सः कर्मफलं प्रधानः इति चिन्तयति.
न महोदय, तत्र प्राधान्येन इति तत्र सम्बन्धः अस्ति वा तेन इति? तत्र
विशेषणं खलु.
कस्य विशेषणं?
तेन.
किमर्थं सः प्राधान्यः वा अथवा कर्मफलं प्राधान्यम् इति चिन्तयति वा? किं
कर्मफलं प्राधान्यम् इति?
अतः तत्र प्राधान्येन इति तत्र स तेन इति पदस्य विशेषणं नास्ति. अतः सः
सः कर्मफलं
प्राधान्येन
चिन्तयति.
चिन्तयति. तत्र कर्मफलस्य विषये एव सः आधिक्येन चिन्तयति. अतः तत्र प्राधान्येन चिन्तयति. अतः तत्र विशेषणविशेषभावः नास्ति. तत्र तृतीयविभक्त्यन्तं तिष्ठति एव.
प्राधान्येन कस्य विशेषणम् अस्ति?
विशेषणं नास्ति अत्र. अत्र विशेषणमेव नास्ति. किन्तु सम्बन्धः कुत्र अस्ति इति प्रश्ने सति तत्र कर्मफलेन सम्बन्धः अस्ति. तस्य चिन्तनं सः चिन्तयति. किं चिन्तयति? कर्मफलमेव प्राधान्यम् इति. अतः तत्र कर्मफलस्य चिन्तनम् आधिक्येन सः करोति.
अस्तु.
सः प्राधान्यः नास्ति. केवलं कर्मपदस्य प्राधान्यम् अस्ति इति सः चिन्तयति.
एकदा तेन एकः गुरुः प्राप्यते. एकदा सः एकः गुरुः
प्राप्नोति. किन्तु इदानीम् एकः इति समीचीनं. सः तत्र सः इति सः प्राप्नोति. इदानीं तत्र सः इति
एकं गुरुं
समीचीनं.
द्वितीयविभक्ति एकं गुरुं प्राप्नोति.
उत्तमं. अस्तु रघुवीरेन्द्रस्वामी अग्रे.
गुरु एकनिमिषं महोदय. गुरुणा उपदेशः क्रियते. गुरुः उपदेशं करोति.
गुरुः
कर्मणि.
समीचीनं. तत्र उपदेशः इति कर्मपदम्. अतः कर्मणि प्रयोगः एव. समीचीनं.
एतस्य मनसि प्रश्नैः उद्भूयते. एतस्य तस्य
न एतस्य एव एतस्य मनसि
एतस्य मनसि प्रश्नान्
तत्र उद्भूयते इति अस्ति. तत्र उद्भूयते भावे प्रयोगः वा कर्मणि प्रयोगः वा?
भावप्रयोगः अस्ति उद्भूयते उद्भूयते तदा प्रश्नैः तथा स्थीयते एतस्य मनसि प्रश्नैः
इति पदस्य विभक्ति का
तृतीयविभक्ति बहुवचनम्
अस्ति तत्र कर्मपदं वा कर्तृपदं वा
कर्मपदमस्ति
कर्मणि प्रयोगे तत्र कर्मपदस्य विभक्ति का
ओ ओ तत् प्रथमविभक्तिः अस्ति परन्तु अत्र तृतीय अस्ति तत् तृतीय कर्तरिप्रयोगे अस्ति कर्तरि अस्ति कर्तृपदम् अस्ति एतस्य मनसि प्रश्नाः
उद् इति उपसर्गः
उपसर्गः अस्ति उत्
उद्
उद्तिष्ठति
न न भूयते भूयते इति
उद्भवति
हा उद्भवति
उद्भवति एतस्य मनसि प्रश्नाः उद्भवति
हा किन्तु उद्भवति इति साक्षात् नास्ति यतोहि क्रियापदं कर्तृपदम् अनुसरति
उद्भवन्ति
हा उद्भवन्ति उद्भवन्ति तावदेव समीचीनं हा अस्तु रघुवीरेन्द्रस्वामी अग्रे
महोदय
बहुभिः इति
भवन्ति वा
पूर्वं तत्र हा एतस्य मनसि प्रश्नाः उद्भवन्ति हा यतोहि उद्भवन्ति इति एव तत्र क्रियापदं कर्तृपदम् अनुसरति कर्तृप्रयोगे
उच्छन्ति इति एव
न न तत्र प्रायश उद्भवन्ति एव अस्ति महोदय तत्र तत्र भवति तत्र अस्ति अपि कर्मणि प्रयोगे भूयते भवति अपि क्रियापदस्य भूयते एव किन्तु तत्र उद्भवति इति प्रसिद्धः खलु अतः तत्र उद्भवन्ति उद् अस्ति इति तत्र उद् उपसर्गः प्रायशः अस् धातोः उद् उपसर्गः नास्ति इति चिन्तयामि महोदय
बहुभिः गीतायाः उदाहरणैः गुरुणा सह बोध्यते
अत्र कर्तृपदं किम्
गुरुः वा महोदय
हा गुरुणा इति तत् कर्तृपदमस्ति समीचीनं गुरुः इदानीं तत्र कर्मपदं किम् अस्ति
गुरुः तं बोधयति
हा गुरुः तं बोधयति इदानीं तत्र गुरुः तं बोधयति तस्य भागस्य परिवर्तनं कृतम् इदानीं तत्र अन्यानि पदानि सन्ति तेषां परिवर्तनमपि आवश्यकं वा अथवा न
उदाहरणैः गुरुः तं बोधयति
हा तावदेव अतः तत्र केवलं कर्तृपदस्य कर्मपदस्य क्रियापदस्य एव परिवर्तनम् अन्येषां पदानां परिवर्तनं न भवति अस्तु नरेश् महोदय अग्रे
तेनापि मध्ये मध्ये जिज्ञासा प्रकट्यते सः अपि मध्ये मध्ये जिज्ञासा प्रकटति
प्रकटयति किन्तु प्रकटयति इति अत्र कर्मणि प्रयोगः वा
जिज्ञासां
हा जिज्ञासां प्रकटयति सः अपि मध्ये मध्ये जिज्ञासां प्रकटयति समीचीनं हा रघुवीरेन्द्रस्वामी
महोदय भवान् अपि तथैव करोति खलु बहुभिः उदाहरणैः बोधयति
किमपि न करोमि महोदय अस्तु
मध्ये मध्ये वयं जिज्ञासा प्रकृतिं
हास्यार्थं वा समीचीनमस्ति महोदय अस्तु अग्रे सरामः
अन्ततो गत्वा तेन सत्त्वम् एकत्वं च अवगम्यते
अतः तत्र कर्मणि वा भावे वा इति प्रथमप्रश्नः
सः अवगच्छति
हा सः अवगच्छति हा अवगच्छति इति सकर्मकधातुः
अन्ततो गत्वा सः सत्त्वम् एकत्वं च अवगच्छति
अवगच्छति तावदेव समीचीनं हा अस्तु नरेश् मध्ये अग्रे
सत्त्वम् एकत्वं
नपुंसकलिङ्गपदं
नपुंसकलिङ्गपदं
हा अतः प्रश्न विभक्ति परिवर्तनमस्ति किन्तु रूपपरिवर्तनं नास्ति
रूपपरिवर्तनं नास्ति तद् तदनुसारेण आचरणस्य निश्चयः क्रियते तदनुसारेण आचरणस्य निश्चयं करोति
हा तद् अनुसारेण निश्चयं
निश्चयं करोति
हा निश्चयं करोति निश्चयं करोति सत्यं तत्र तदनुसारेण तत्तु तिष्ठति एव इति मन्ये
तदनुसारेण तत्तु
तिष्ठति
विशेषणं नास्ति तदनुसारेण
आचरणस्य आचरणस्य अपि तत्र तिष्ठति निश्चयं करोति
निश्चयं करोति
तदनुसारेण नाम तत्र सत्त्वम् एकत्वं किम् अस्ति इति सः अवगतवान् तस्य अवगमनम् अथवा तत्र सत्त्वम् एकत्वं तेन अथवा तस्य अनुसारेण आचरणस्य निश्चयं करोति कथं तत्र आचरः कथं भवेत् इति सः निश्चयं करोति
तत्र परिवर्तनं नास्ति
नास्ति हा समीचीनम् अस्तु रघुवीरेन्द्रस्वामी अग्रे
तेन सन्तुष्टेन जीवनं नीयते सः सन्तुष्टेन जीवनं करोति
हा समीचीनं तत्र सन्तुष्टेन तृतीया विभक्त्यन्तमस्ति किन्तु विशेषणं नास्ति अतः अतः तत्र तत्र सन्तुष्टः सः जीवनं करोति इति न खलु केवलं तत्र हा कथं सः जीवनं करोति इति भाव भावः भाववाचकशब्दः अस्ति तत्र सन्तुष्टेन इति अतः इति चिन्तयामि तत्र ओ क्षम्यतां सन्तोषेन इति नास्ति महोदय रघुनन्दस्वामी अतः तत्र प्रायशः सन्तुष्टः इति एव भवति
सः सन्तुष्टः
सन्तुष्टः सन्तोषः नास्ति सः सन्तुष्टः इति अस्ति सन्तुष्टः तु विशेषणमेव भवति इति चिन्तयामि
सन्तुष्टः
हा सः सन्तुष्टः जीवनं करोति हा
सन्तुष्टः सः जीवनं
करोति सत्यं हा हा करोति सत्यम् अतः विशेषणम् अस्ति तत्र सन्तोषम् आसीत् चेत् तत्र सन्तोषेन यदि आसीत् तिष्ठेत् किन्तु सन्तुष्टः सन्तुष्टेन इति अस्ति समीचीनम् अस्तु नरेश् महोदय अग्रे
अन्यैः तस्य जीवनम् अवलोक्यते अत्र अन्याः
न तत्र सर्वनामपदम् अस्ति महोदय अत्र तत्र अन्ये इति एव तत्र सर्वः बहुवचने सर्वे तादृशम् अन्यः अन्यौ अन्ये इति
अन्ये तस्य जीवनम् अवलोकते
अवलोकन्ते समीचीनं हा अवलोकन्ते हा समीचीनं हा अस्तु रघुवेन्द्रस्वामी अग्रे
पुनः महोदय
तत्र अन्ये तस्य जीवनम् अवलोकन्ते.
अन्यः इति सर्वनामपदम्.
अतः तत्र बहुवचने अन्ये इति
सर्वः.
सर्वः सर्वे, अन्यः अन्ये.
सर्वः सर्वौ सर्वे
सर्वे. तादृशम् अन्ये.
अन्ये तस्य जीवनम् अवलोकयन्
अवलोकन्ति अवलोकन्ते अवलोकन्ते. नाम पश्यन्ति.
आत्मनेपदि अवलोकन्ते.
अवलोकते अवलोकेथे
अवलोकते.
तेन तत्त्वं बोध्यते. सः तत्त्वं बोधयति.
बोधयति समीचीनं.
सर्वैः सर्वैः एतत् इष्यते. सर्वे एतत् इच्छन्ति.
इच्छन्ति समीचीनं. सर्वे एतत् इच्छन्ति. रघुवीरेन्द्रस्वामिग्रे
इष्यते इच्छन्ति. एतैः स्वजीवने तदाचरितं प्रयत्नः विधीयते. एषः एतौ एते स्वजीवने तदाचरितुं प्रयत्नः विधीयन्ति.
विधीयन्ति विधीयन्ति समीचीनं महोदय. विधीयन्ति
प्रयत्नः किमस्ति?
प्रयत्नं प्रयत्नं
प्रयत्नं.
कर्मपदं कर्मपदं
कर्मपदमस्ति. विधीयन्ते एतत् आत्मनेपदी नास्ति
तत्र. विधीयन्ति इति चिन्तयामि महोदय. तत्र धीयते इति तत्र तत्र तद् किम् अनेके धातवः सन्ति येषां तत्र भावे तत्र कर्मणि रूपं विधीयन्ते इति अस्ति. विधीयते इति अस्ति किन्तु तत्र विधीयन्ति इति अपि तत्र परस्मैपदी धातुः अपि अस्ति आत्मनेपदी धातुः अपि अस्ति. अतः तत्र प्रयत्नं कुर्वन्ति तत्र कुर्वन्ति प्रयत्नं कुर्वन्ति इति.
अस्तु
अस्तु अग्रे.
एवं तेन सार्थकं जीवनं क्रियते. एवं सः सार्थकं जीवनं करोति.
एवं सः सार्थकं जीवनं
करोति. एवं एवं सः सार्थकं जीवनं करोति.
समीचीनं. अस्तु अग्रे रघुवीरस्वामी सूक्तिः इति अस्ति.
जितक्रोधेन सर्वं हि जगत् जगदेतद्विजीयते. जितक्रोधः सर्वं हि जगद् एतत् न जगत् जगतं वा
न जगत् एव जगत्
एतं जगतं
न एक एतं जगत्
पदं नास्ति वा महोदय?
जगतेव जगतेव
जगत् विजीयते. जगत्
विजयति
विजयति. समीचीनम्. अथवा जयति विजयति.
परन्तु द्वे तकारः सन्ति. जगति जगदे तत् विधीयते. तत् द्वे अस्ति
हा महोदय तत्र 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 रघुवीरस्वामी पुनः वाक्यं वदतु कर्तरीरूपं किम् अस्ति अत्र
कर्तरि जितक्रोधः सर्वं हि एतं जगतं जगतां
न न जगत् जगत् एव जगत् इति नपुंसकलिङ्गपदं जगत् जगति जगन्ति
महोदय पुनः वदतु जगत्
जगत् जगति जगन्ति
तर्हि जितक्रोधः सर्वं हि जगत्
एतद् एतद् जगत्
एतत् विजयते
विजयति विजयते विजयति विजयति
द्वितीयरूपं किं महोदय
जगतेव जगतेव
जगत् एतत्
एतत् एतत् नपुंसकलिङ्गं सूचयति खलु एतत् अतः एतत् जगत् विजयति विजयति अतः तत्र जितक्रोधः जितक्रोधः एतत् जगत् सर्वं सर्वं हि एतत् जगत् विजयति अतः तत्र जितक्रोधः इति कर्तृपदम् एतत् सर्वम् एतत् जगत् जगत् इति साक्षात् कर्मपदम् अपि तत्र एतत् सर्वम् एतत् इति तत्र विशेषणं गीताञ्जलि भगिनी नमस्कारः
नमस्ते महोदय सर्वेषां महोदय
चिन्ता मास्तु भगिनी भवती कथमस्ति भवती कुत्र अस्ति इदानीं तत्र भारतदेशे एव अस्ति वा
भारतदेशे गतवती
प्रयासः कथमासीत् विमाने किं भगिनि
किं महोदय
प्रयासः तत्र विमाने तत्र
प्रयासः तु उत्तमं महोदय किमपि विघ्नः
विघ्नः नास्ति अनेके जनाः आसन् वा तत्र विमाने
सम्पूर्ण एकमेव किम् आसनं रिक्तं नास्ति महोदय
अस्तु 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 भगिनि
भारतदेशे कुत्र अस्ति
मध्यप्रदेशे नास्ति छत्तीसगढ् रायपुर् नगरे
अस्तु भगिनि समीचीनम् अस्तु तत्र वयं कुत्र स्मः इत्युक्ते भगिनी तत्र 133 भगिनी पेज् 133
तु समाप्तं
हा हा इदानीं समाप्तं किन्तु तत्र एकः अंशः अस्ति तत्र हा तत्र जितक्रोधेन सर्वं हि जगत् एतत् विजीयते तत्तु कर्मणि रूपं कर्तृरूपं तु जितक्रोधः सर्वं हि जगत् एतत् विजयति जितक्रोधः इत्युक्ते कः
यः क्रोध जित
हा यः क्रोधं जितवान् अथवा यः क्रोधं जयति सः जितक्रोधः अतः तत्र जयति इति तत्र द्विवारम् आगच्छति वाक्ये तत्र जितक्रोधः इति तु तत्र तु बहुव्रीहिसमासः यः क्रोधं जितवान् सः जितक्रोधः इति अस्तु अस्तु तर्हि इदानीं तत्र अग्रे गन्तुं शक्नुमः अस्तु इदानीं तत्र कर्मणि अपि भावे प्रयोगः लोट् लकारे कथं भवति इति अस्तु अतः तत्र के सन्ति तत्र मध्ये तत्र दुर्योधनः अस्ति द्रोणः अस्ति अपि दुःशासनः अस्ति कर्णः अस्ति भीष्मः अस्ति अस्तु तत्र किं कुर्मः तत्र हा एकमेकं तत्र कुर्मः तत्र गीताञ्जलिभगिनी तत्र भवती आरम्भं करोतु तदनन्तरं तत्र वाक्यद्वयं पठतु तदनन्तरम् अन्ये वाक्यम् अन्यः वाक्यद्वयं पठति इति तादृशं कुर्मः
अस्तु महोदय भीष्म एवाभिरक्षत् एवाभिर्
हा एव भीष्म एव अभिरक्ष्यताम्
रक्ष्यताम्
हा
भीष्म एवाभिरक्ष्यताम्
हा तत्र भीष्मस्य एव रक्षणं भवतु इति हा
भगवद्गीतायाम् अस्ति भीष्ममेवाभिरक्षन्तु भवन्तः सर्व किम् अस्तु महोदय
तदेव अस्ति भगिनि
कर्मणि भावे प्रयोगी लोट्लकारः एतत् सम्भाषणम् उच्चैः पठत दुर्योधनः आचार्य प्रणामः कृपया उद्धीयताम् शीघ्रं समुत्थीयताम् सूर्योदयः समासन्नः द्रोणः वत्स भवता सावधानेन भूयताम् त्वरया किमपि न क्रियताम्
समीचीनं भगिनि अस्तु अग्रे नरेश महोदय
गुरुवारे कथं मया सावधानेन भूयताम् आतङ्कवता मया किमपि क्रियताम् एव खलु दुर्योधनः वदति द्रोणः वदति वत्स जानामि भवतः परिस्थितिं वत्सेन दुःशासनेन अपि सन्निहितेन भूयताम् खलु
अस्तु अग्रे तत्र रघुनन्दस्वामी
महोदय
कुत्र एषः इति एषः वत्सः दुर्योधनः एषः वत्सः अग्रिम पुटे महोदय पेज् 134 तत्र
दुर्योधनः द्रोणः
दुर्योधनः द्रोणः दुर्योधनः द्रोणः अभवत् इदानीं तत्र पञ्चमवाक्यम् एषः वत्सः
दुर्योधनः एषः वत्सः दुःशासन उपस्थितः एव अस्ति
अग्रे तत्र वाक्यत्रयं पठतु महोदय तत्र
दुःशासनः आचार्य वन्दे दुर्योधनः आदिश्यताम् अनन्तरं किं क्रियताम् इति
समीचीनम् अस्तु इदानीं गीताञ्जलि भगिनि
द्रोणः श्रूयताम् प्रथमं सैन्याधिपः सर्वसेना संरक्षकः भीष्मपितामहः प्रबोध्यताम् दुर्योधनः अस्तु तत्र भवता स्नानानुष्ठानादिकं शीघ्रं परिसमाप्यताम् तत्र भवतः साहाय्यार्थं दुःशासनेन अत्र एव स्थीयताम् वत्स भवता अत्र एव भूयताम् अनुष्ठानानन्तरम् आचार्यः
रणक्षेत्रम्
रणक्षेत्रम् आनीयताम्
धन्यवादः
दुःशासनः अस्तु द्रोणः वत्स ततः पूर्वं भवता गत्वा कर्णः उच्यताम् मम पूर्वसूचनानुसारं व्यूहः विरच्यताम् इति अश्वाः गजाः रथाः पदातयः सर्वे सैनिकाः च यथास्थानं स्थाप्यन्ताम् इति अहम् अनन्तरं तत्रैव दृश्यै इति यदि अपेक्षते भवानेव स्वयं साहाय्यकत्वेन स्वीक्रियताम् इति च दुर्योधनः अस्तु इति गतः स सर्वे भीष्मः द्रोणः कर्णः कृपः दुर्योधनः दुःशासनश्च रणाङ्गणे स्थिताः.
अस्तु रघुवेन्द्रस्वामी अग्रे.
दुर्योधनः अस्तु इति गतः.
अस्तु अस्तु पुनर्पठतु महोदय. चिन्ता मास्तु.
सर्वे भीष्मः द्रोणः कर्णः कृपः दुर्योधनः दुःशासनश्च रणाङ्गणे स्थिताः. कर्णः आचार्य प्रणम. द्रोणः अथवता समेध्यता.
पठतु महोदय. तत्र तत्र भीष्मः द्रोणः भीष्मः द्रोणः तदनन्तरं दुर्योधनः तावत्पर्यन्तं पठतु.
भीष्मः आचार्य ममापि एष नमस्कारः महोदय. ममापि
एषः
नमस्कारः.
हा एषः तत्र विसर्गस्य लोपः.
द्रोणः पितामहः. हे पितामह मया एव ननु भवान् अभिवाद्यताम्. ओ भीष्मः मया एव अभिवाद्यताम् अथवा आवाभ्याम् आवाम् अन्योन्यम् अभिवन्द्यावहै.
अग्रे अपि पठतु महोदय. तत्र वीक्ष्यतां पर्यन्तं वीक्ष्यतां पर्यन्तं
अर्थः कः न अवबुध्यते.
तत्र आशीर्वाद मम अपि नमस्कारः इति तत्र अभिवादनं तत्र अभिवाद्यतां तत्र परस्पर तत्र नमस्कार नमस्कारः इति वदामः इति. अन्य अन्य अन्योन्यम् अन्ये.
ओ
तत्र भीष्मः द्रोणं नमस्करोति द्रोणः भीष्मं नमस्करोति इति अथवा करणीयं तत्र अथवा परस्परनमस्करण नमस्कारः करणीयः इति.
द्रोणः अस्तु आवाभ्यां परस्परं हस्ताः गृह्यन्ताम्. दुर्योधनः आचार्य आगम्यताम् अत्र प्रियमित्रेण तन्नेन भवतः सूचनाम् अनुसृत्य व्यूहः रचितः. इदानीं वीक्ष्यताम्.
इदानीं वीक्ष्यताम् समीचीनम् अस्तु. गीताञ्जलि भगिनी अग्रे.
महाशय रथाः महाशय रथाः यत्र स्थाप्यन्ताम् इति सूचिताः तत्र स्थापिताः. इमे गजाः इमे अश्वाः इमे पदातयः च अवलोक्यन्ताम्. द्रोणः अस्तु व्यूहपत्रं पठ्यताम्. मम उत्तरीयं किञ्चित् उन्नीयताम्. मम उत्तरीयं किञ्चित् उन्नीयताम्. दुर्योधनः आचार्य तव धीमता शिष्येण दृष्टद्युम्नेन व्यूढा चमूः दृश्यताम्. अत्र महेश्वासाः शूराः भीमार्जुनसमाः सन्ति.
तत्र शाव्यन्तं पर्यन्तं पठतु भगिनि.
अस्तु कर्णः सखे परेषां विषये चिन्ता त्यज्यतां भवता. अस्माकं जनाः नायकाः च गण्यन्ताम्. दुर्योधनः द्विजोत्तमा मम सैन्यस्य नायकाः एते द्रोणः अस्तु श्राव्यन्ताम्
समीचीनं भगिनी धन्यवादः नरेश महोदय अग्रे
दुर्योधनः भवान् भीष्मः कृपः अश्वत्थाम विकर्णः भूरिश्रवाः एते कर्णादयः अन्ये अपि मदर्थे त्यक्तजीविता
जीविताः
प्रतिहतम् अमङ्गलम् जीवितानि न त्यज्यन्ताम् दुर्योधनः आचार्य अनेन भीष्माभिरक्षितेन अस्माकं बलेन पर्याप्तेन न भूयते तेन भीमाभिरक्षितेन पाण्डवानां सैन्येन पर्याप्तेन भूयते इति मन्ये भीष्मः वत्स सातङ्कहृदयेन भवता अवाच्यम् उच्यते
अग्रे रघुनन्दस्वामी अग्रे दुर्योधन आचार्य इति वदति तत्र एतेन वृद्धेन
दुर्योधनः आचार्य एतेन वृद्धेन पितामहेन किमपि चिन्त्यतां नाम भवद्भिः सह सर्वैः यथा भागं तथा स्थानम् अवश्यतैः भूयत
सर्वं पठतु महोदय
आं महोदय न न अहं प्रथमाध्यायस्य अर्थः एव दत्तं तत्
सत्यं महोदय सत्यं
द्रोणः वत्स भीष्मस्य रक्षणम् एव अस्माकं मुख्यं दुर्योधनः अस्तु अयं भीष्मः एव सर्वैः अभिरक्ष्यताम् भीष्मः वत्स मा भीयताम् अहं खलु भीष्मः नाम्ना क्रिया च दृश्यतां श्रूयतां च आहाहा शङ्खं धमति सर्वे भीष्मः अभिरक्ष्यताम् भीष्मः अभिरक्ष्यताम् भीष्मेन जीयताम्
अस्तु समीचीनं तत्र नूतनविषयः कः इत्युक्ते तत्र कर्मणि प्रयोगः कः इति दृष्टवन्तः भावे प्रयोगः कः इति दृष्टवन्तः किन्तु इदानीं तत्र लट्लकारे दृष्टवन्तः इदानीं लोट्लकारे रूपं कथं भवति इति एव विषयः तत्र अतः तत्र पठति इति अस्ति क्रियापदम् पठति इति क्रियापदं पदस्य कर्मणि प्रयोगः कर्मणि प्रयोगे रूपं किं भवति गीताञ्जलि भगिनी पठति इति पदस्य
पठ्यते
इति अतः तत्र आत्मनिपदि धातु इव भवति पठ्यते पठ्येते पठ्यन्ते इति भवति इदानीं तत्र पठ्यते इति तत्तु लट्लकारः आत्मनेपदी धातूनां तत्र लोट्लकाररूपं किम् अस्ति अतः तत्र इदानीं तत्र लोट्लकाररूपं तावदेव तत्र अतः तत्र पठति इति पठ्यते इति अभवत् तदनन्तरं पठ्यते इति लट्लकाररूपम् आसीत् इदानीं केवलं लट्लकाररूपं त्यक्त्वा लोट्लकाररूपस्य आवश्यकता अस्ति तावदेव अतः तत्र पट् इति अस्ति पठति पठ्यते पठ्यताम् इदानीं तत्र किम् अस्ति इति तत्र भूयते लट्लकारः किन्तु लोट्लकारे भूयताम्
भूयतां भूयन्ताम्
हा भूयन्ताम् अपि तत्र अन्यत् किमपि चिन्त्यं तत्र हा ईक्षते हा ईक्षते तत्र ईक्षते इति कर्मणि प्रयोगे किम् अस्ति
ईक्ष्यते
हा यकारः मध्ये आगच्छति समीचीनं भगिनि ईक्ष्यते ईक्षते इति नास्ति ईक्ष्यते इति अस्ति ईक्षते इति आसीत् चेत् तत्तु आत्मनिपदि धातुः एव अस्ति ईक्षते इति तस्य लोट्लकरूपम् ईक्षताम् किन्तु इदानीं कर्मणि रूपम् अस्ति ईक्ष्यते ईक्ष्यते इति लट्लकारः इदानीं लोट्लकारः अस्ति ईक्ष्यताम् ईक्ष्यताम् तावदेव अतः तत्र सर्वं समानमेव तत्र दृश्यते दृश्यताम् अतः तत्र केवलम् इदानीं तत्र विषयद्वयं मनसि स्थापनीयमस्ति नाम कर्मणि प्रयोगदट्लकारे तत्र धातुः किं भवत् कः भवति अपि आत्मनिधातुः अस्ति चेत् तस्य लोट्लकररूपं किम् अस्ति इति
अत्र कोऽपि परस्मैपदी नास्ति
न न परस्मैपदी अस्ति चेत् तत्र कर्मणि कुर्मः खलु महोदय पठति इति स्थाने किं भवति पठ्यते इति भवति खलु
आम् आम्
हा तदनन्तरं पठ्यताम् इति रूपम् अपेक्षितमस्ति नाम यदा पूर्वं वयं कर्मणि अथवा भावे प्रयोगं कृतवन्तः तत्र धातोः केवलं लट्लकररूपं धातुः तु तत्र इदानीम् आत्मनेपदी धातुः अस्ति खलु पठ्यते इति तत्र आत्मनेपदी धातुः अस्ति केवलं तत्र तस्य लट्लकाररूपं स्थापितवन्तः इदानीं सः एव धातुः पठ्यते इति सः एव क्रियापदं तदेव क्रियापदं किन्तु इदानीं तस्य क्रियापदस्य लोट्लकाररूपं स्थापयामः तावदेव अतः सोपानद्वयं कर्मणि प्रयोग क्रियापदं स्वीकरोतु तस्य लो आत्मनेपदि धातुः अभवत् इदानीं तस्य लोट्लकाररूपं प्राप्नोतु तावदेव तत्र प्राप्यते इति स्थाने प्राप्यताम् भूयते भूयताम् इति अपि तत्र कर्मणि प्रयोगः अस्ति चेत् तत्र उत्तमपुरुषः मध्यमपुरुषः वचनं सर्वं द्रष्टव्यमस्ति किन्तु भावे प्रयोगः अस्ति चेत् तत्र अस्ति इति स्थाने अस्ति तु अकर्मकधातुः अस्ति भूयते इति भवति
भूयताम्
भूयतामेव भवति तावदेव अस्तु अतः तत्र तदेव अस्ति इदानीं तत्र रूपं दृष्टवन्तः एकवारम् इदानीं तत्र आत्मनिपदि धातूनां तत्र लोट्लकररूपम् एकवारं स्मरामः तत्र वर्धते वर्धते अथवा सेवते तत्र सेवते इति नरेश महोदय स्मरति वा लोट्लकररूपं हा
लोट्लकररूपं सेवतां सेवेतां सेवन्तां सेवस्व सेवेथां सेवध्वं
हा समीचीनं
सेवै सेवावहै सेवामहै
इति एव अस्ति महोदय उत्तमम् अस्तु इदानीं तत्र पठ्यते इति पठति इति स्थाने पठ्यते हा इदानीं पठ्यते इति लट्लकररूपम् इदानीं लोट्लकररूपं किम् अस्ति
पठ्यतां पठ्येतां पठ्यन्तां पठ्यस्व पठ्येथां पठ्यध्वं पठ्यै पठ्यावहै पठ्यामहै
इति एव अस्ति उत्तमम् अस्तु हा अस्तु इदानीं तत्र रघुवीरेन्द्रस्वामी इदानीं तत्र करोति इति तत्र करोति इति अस्ति तस्य कर्मणि रूपं किम् अस्ति
क्रियते
क्रियते हा इदानीं तत्र क्रियताम् इति तत्र लोट्लकरूपं वदतु
क्रियतां क्रियेतां क्रियन्तां क्रियस्व क्रियेतां क्रियध्वं क्रियै क्रियावहै क्रियामहै
क्रियामहे इति अस्ति. समीचीनं महोदय, अस्तु उत्तमम्. अस्तु गीताञ्जलि भगिनी, इदानीं तत्र दृश्यते, तत्र पश्यति इति स्थाने तत्र दृश्यते. इदानीं तत्र दृश्यते इति तस्य लोट्लकाररूपं भगिनि,
दृश्यतां दृश्यतां दृश्यन्तां दृश्यस्व दृश्येतां दृश्यध्वं दृश्यै दृश्यावहै दृश्यामहै
हा इति अस्ति. अतः तत्र कार्यं सुलभम् अस्ति इदानीं, खलु? हा, अतः तत्र केवलं तत्र आत्मनिपदिधातूनां लोट्लकाररूपं जानीमश्चेत् कर्तुं शक्नुमः. तत्र कर्मणि प्रथमतया कर्मणि इति सोपानं, तदनन्तरं लोट्लकाररूपम् इति सोपानं, तावदेव. अस्तु, अतः तत्र इदानीं तत्र तद् मनसि भवति चेत् अग्रे तत्र किमपि नास्ति. इदानीं तत्र पाठे किं किम् अस्ति इति अग्रिमवर्गे पश्यामः, किन्तु नूतनविषयः एषः एव अस्ति, तत्र लोट्लकाररूपं तत्र क्रियतां. हा, यथा तत्र वयं वदामः क्षम्यतां, तत्र तत्र भवद्भिः तत्र क्षम्यताम् इति. अस्तु, तत्र अथवा भवद्भिः न, तत्र हा भवत् भवता क्षम्यताम् इति. अस्तु, अतः तत्र अत्र स्थगयामः तर्हि. तत्र रघुवीरेन्द्रस्वामी, भवान् एव तत्र अन्ते शान्तिमन्त्रं वदति वा?
पूर्णमिदम् पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्ति शान्ति. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ओम्.
धन्यवादः महोदय.